इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य अवशिष्ट चरणयोः प्रचारः तीव्रगत्या प्रचलति। प्रधानमन्त्रिणा भारतीय जनता पार्टीति दलस्य वरिष्ठ नेत्रा च नरेन्द्रमोदिना बिहारे उत्तरप्रदेशे च कृता भूरि जनसभाः। दिल्ल्याः राउज एवेन्यू न्यायालयेन अद्य आश्रव नीति वञ्चना धनशोधन विषये पूर्व उपमुख्यमन्त्रिणः मनीष सिसोदियावर्यस्य न्यायिक निगडन मई 31 यावत् अग्रे सारितम्। ईरानदेशे राष्ट्रपति निर्वाचनं जूनमासस्य 28 दिनांके भविष्यति। पैरा एथलेटिक महिलानां एफ 150 क्लब थ्रो प्रतिस्पर्धायां भारतस्य क्रीडिका एकताभ्यान स्वर्णपदकं समर्जितवती। अपि च भारतीय पुरुष कनिष्ठ हॉकी समूहेन स्वस्य यूरोप यात्रायाः आरम्भ बेल्जियमोपरि विषयेन सह कृतः। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा भारतीय जनता पार्टीति दलस्य वरिष्ठ नेत्रा च नरेन्द्रमोदिना कथितं यत् कांग्रेस इति एकं वंशवादी दलम् अस्ति, इदं तु केवलं एकस्य परिवारस्य हिताय एव अस्ति। अद्य बिहार प्रदेशस्य मोतिहारी इति स्थाने एकां जनसभां सम्बोधयन् सः उक्तवान् यत् कांग्रेस इति दलस्य नेतृत्वे इंडी इति संयुतिः लोकसभा निर्वाचने नूनमेव पराजयं प्राप्स्यति। सः कथितवान् यत् भ्रष्टाचारे भारत विरोधि प्रचारे च सम्मिलितान् जनान् प्रजा यथोयोग्यम् उत्तरं दास्यति। सः निर्धनजनोदय विद्युतापूर्त्याः महानशीय वातीन्धनस्य आपूर्त्याः अपि चर्चा कृतवान्। श्रीमोदिना प्रोक्तं यत् एषः मोदी अस्ति येन प्रतिगृहं वातीन्धन प्रापणस्य दायित्वं निजस्कन्धे निर्व्यूढ। एषः प्रतिगृहं स्वच्छं पेयं नलजलं प्रापयितुम् अहर्निशं परिश्रमं करोति। अत्रावसरे अमुना कांग्रेस इति दलं आरजेडी दलं च समेत्य तस्य सहायक दलानि अधिक्षिप्तानि, यत् एतैः दलैः जनसामान्याः केवलं प्रतिश्रुति विधानमात्रेण पर्याकुलीकृताः सन्ति। प्रधानमन्त्रिणा महाराजगंजस्य गोरियाकोठी इति क्षेत्रे एकस्याम् अन्य जनसभायाम् उक्तवान् यत् इंडी इति संयुतिः साम्प्रदायिक जातिवादी वंशवादी च अस्ति। राष्ट्रिय जनता दलस्य नेता तेजस्वी प्रसाद यादवः संयुतेः प्रत्याशिनां समर्थने जीरादेई क्षेत्रे मोतिहारी शिवहर क्षेत्रे च सभां करिष्यति। श्री नरेन्द्र मोदी अद्य स्वनिर्वाचन क्षेत्रे वाराणस्यां मातृशक्ति सम्मेलने प्रतिभागं करिष्यति। देहल्याः सर्वेषां लोकसभा क्षेत्राणां कृते शनिवासरे मई मासस्य 25 दिनांके सम्पत्स्यमानस्य निर्वाचनस्य प्रचार कार्यक्रमः चरमावस्थायाम् अस्ति। भारतीय जनता पार्टीति दलस्य कांग्रेस दलस्य आम आदमी पार्टीति दलस्य च नेतारः अत्युत्साहेन प्रचार कार्यक्रमे संलग्नाः सन्ति। देहल्याः राउज एवेन्यू न्यायालयेन अद्य आसव नीति भ्रष्टाचारेण सह सम्बद्धे धनशोधन विषये पूर्व उपमुख्यमन्त्रिणः मनीष सिसोदियावर्यस्य न्यायिक निगडन मई 31 अग्रे सारितम्। प्रकरणस्य अग्रिम वादश्रवणं मई 31 भविष्यति। प्रवर्तन निदेशालयेन केन्द्रीय अभिवेशन अभिकरणेन च अस्याधारेण सिसोदियायै शैथिल्य प्रदानस्य विरोधः कृतः यत् अभियुक्तस्य असहयोग कारणेन प्रकरणे आरोपं निश्चेतुं सतत विलम्बः जायमानः वर्तते। पञ्चमचरणस्य मतदानस्य सम्पन्नानन्तरं अधुना यावत् 25 राज्येषु लोकसभायाः 28 400 मितेभ्यः आसनेभ्यः मतदानं सम्पन्नं जातम्। अरुणाचलप्रदेशस्य सिक्किमस्य आन्ध्रप्रदेशस्य ओडिशायाः च त्रिषष्ठी विधानसभासनानां कृते अपि मतदानं सम्पन्नं जातम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। बिहार राज्यस्य सारण संसदीय निर्वाचन क्षेत्रे क्षपरा क्षेत्रस्य तेलपा थाना क्षेत्रे निर्वाचनानन्तरं दुरापन्न हिंसायां एकः जनः मृत्युमुपगतः, द्वौ चान्यौ व्रणितौ सूच्यन्ते। अत्रावसरे द्वौ हिंसायाः आरोपिणौ निगडीकृतौ स्तः। तत्र स्थितिः नियन्त्रणाधीना वर्तते, आरक्षिबलानि च नियोजितानि सन्ति। सामाजिक संचार संजालेषु व्यापन्नाः भ्रामक सूचनायाः नियन्त्रणाय जनपदे द्विदिवसपर्यन्तम् अन्तर्जालसेवा अवरोधिता अस्ति। झारखण्ड भाजपा दलेन हजारीबागस्य लोकसभा सांसदः जयन्त सिन्हा इत्यस्मै निर्वाचने मतप्रदानस्य कारणं कथयतु इति संसूचना प्रसारिता। हजारीबागः चत्रा कोडरमा इत्यनेन सह ह्यः देशे सर्वत्र पञ्चमचरणस्य मतदानं, झारखण्डे द्वितीयचरणस्य च मतदानम् अभवत्। दलस्य राज्यमहासचिवेन आदित्य साहू इत्यनेन एषा सूचना प्रख्यापिता यत् सिन्हा इत्यनेन मताधिकारस्य प्रयोगः न कृतः, येन कारणेन दलस्य अपमानं जातम्। ईरान देशे राष्ट्रपति निर्वाचनं जून 28 दिनांके भविष्यति। इमं निर्णयं ईरान देशस्य अन्तरिम राष्ट्रपतिः मोहम्मद मोखबर, मुख्य न्यायाधीशः गुलाम होसेनः, मोहन मोहसेनी एजेई, संसदः अध्यक्षः मोहम्मद बाकर कालिबफ्सश्च सम्भूय एकस्मिन् सम्मेलने गृहीतवन्तः। इतः प्राक् ईरान देशस्य सर्वोच्च नेता आयातुल्ला अली खामनेई महोदयैः हेलीकॉप्टर दुर्घटनायां राष्ट्रपति इब्राहिम रईसी इत्यस्य मृत्योः अनन्तरं उपराष्ट्रपति मोहम्मद मोखबम अन्तरिम राष्ट्रपति रूपेण नियुक्ति कृता। पैरा एथलेटिक प्रतियोगितायां महिलानां एफ 150 क्लब थ्रो इति प्रतिस्पर्धायां भारतस्य एकताभियानः सर्वोच्चतम प्रक्षेपणाय स्वर्णपदकं समर्जितवती। भारतस्य कशिश लाकडा रजत पदकं, अल्जीरिया देशस्य नाडजेड वेचेर्फ कांस्य पदकं च प्राप्तवती। एषा प्रतिस्पर्धा अस्य मासस्य 25 दिनांक पर्यन्तं प्रचलिष्यति। भारतीय पुरुष कनिष्ठ हॉकी समूहेन स्वस्य यूरोप यात्रायाः आरम्भः बेल्जियमोपरि विषयेन सह कृतः। अस्मिन् विजये भारत पक्षतः कृतम्। निर्धारितम् समये उमावपि समूहौ द्वे द्वे इति समानमेव अंकयोः आस्ताम्। तदनन्तरं स्पर्धायाः परिणामः शूट आउट इत्यनेन जातम्। भारतं स्वकीया द्वितीयां स्पर्धां श्वः नीदरलैण्डस्य ब्रेजयां बेल्जियमेन सह क्रीडिष्यति। अन्ते च मुख्यवार्ताः पुनरेकवारम्। लोकसभा निर्वाचनस्य अवशिष्टचरणयोः प्रचारः तीव्रगत्या प्रचलति। प्रधानमन्त्रिणा भारतीय जनता पार्टीति दलस्य वरिष्ठ नेत्रा च नरेन्द्रमोदिना बिहारे उत्तरप्रदेशे च कृता भूरि जनसभाः। दिल्ल्याः राउज एवेन्यू न्यायालयेन अद्य आशवनीति वञ्चना धनशोधन विषये पूर्व उपमुख्यमन्त्रिणः मनीष सिसोदिया वर्यस्य न्यायिक निगडनं मई 31 यावत् अग्रेसारितम्।